एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा अस्यैव फाल्गुन मासस्य एकविंशे दिवसे सम्पन्नस्य प्रतिनिधिसभा सदस्यानां निर्वाचनस्य अन्तर्गतम् अधुनावधि प्रत्यक्ष प्रणाल्याः पक्षस्य सर्वेषां स्थानानां परिणामः प्राप्तोऽस्ति यत्र राष्ट्रिय स्वतन्त्र दलेन सर्वाधिकं पञ्चविंशत्युत्तरैकशते स्थानेष् विजयः अधिगतोऽस्ति नेपाली कांग्रेस दलेन अष्टादशस् स्थानेष् नेकपा एमाले दलेन नवस् स्थानेष् नेपाली कम्युनिष्ट दलेन अष्टस् स्थानेष् श्रम संस्कृति दलेन त्रिष् स्थानेष् च विजयः अधिगतोऽस्ति राप्रपा दलेन एकस्मिन् स्थाने विजयः प्राप्तो वर्तते एकस्मिन् स्थाने स्वतन्त्र प्रत्याशी विजयी सम्भूतोऽस्ति समानुपातिक निर्वाचन प्रणाल्या अन्तर्गतम् अधुनावधि एककोट्या सप्तसप्ततिर्लक्ष्याणां विंशते सहस्राणां सप्तषष्ट्यधिक पञ्चशतस्य च मतानां गणना सम्भूता अस्ति तत्र समानुपातिक प्रणाल्यां रासोपा दलेन एकपञ्चाशल्लक्ष्याणि एकोनविंशति सहस्राणि एकोनविंशत्यधिक षट्शतंश मतानि प्राप्तानि सन्ति रासोपा दलं समानुपातिक प्रणाल्यामपि अग्रस्थाने वर्तते नेपाली कांग्रेस दलेन सप्तदश लक्ष्याणि पञ्चचत्वारिंशत् सहस्राणि चतुःसप्तत्यधिक नवशतंश मतानि प्राप्तानि वर्तन्ते नेपाली कांग्रेस दलं द्वितीय स्थाने अस्ति एवमेव नेकपा एमाले दलेन चतुर्दश लक्ष्याणि सप्तचत्वारिंशत् सहस्राणि चतुःषष्ट्यधिक षट्शतंश मतानि प्राप्तानि सन्ति तथैव नेपाली कम्युनिष्ट दलेन अष्टौ लक्ष्याणि सहस्र द्वयन्त्री चत्वारिंशदधिक सप्तशतंश मतानि प्राप्तानि वर्तन्ते श्रम संस्कृति दलेन लक्ष्यत्रयम् अष्टासप्तति सहस्राणि अष्टासप्तत्यधिक शतचतुष्टयंश मतानि राप्रपा दलेन च लक्ष्यत्रयम् एकोनत्रिंशत् सहस्राणि सप्तनवत्यधिकैकशतंश मतानि प्राप्तानि वर्तन्ते नवनिर्वाचितानां प्रतिनिधिसभा सदस्यानां शपथग्रहण कार्यक्रमं प्रथमोपवेशं च सिंहप्रासादे निर्माणाधीने नवीन संसद भवने आयोजयितुं पूर्वकार्यं विधीयमानमस्ति नवीन संसद भवनस्य निर्माणकार्यस्य पूर्णतायाः अभावेऽपि उपवेशस्य सञ्चालनार्थम् उपयोगिनः सभाकक्षस्य निर्माणकार्यं द्रुतगत्या अग्रे सञ्चालदस्तीति संघीय संसद सचिवालयेन ज्ञापितं वर्तते नयाँ वानेश्वर वर्तिने वीरेन्द्र अन्तर्राष्ट्रिय सम्मेलन केन्द्रे विद्यमाने संसद भवने गत भाद्र मासस्य त्रयोविंश दिवसस्य प्रदर्शनस्य चतुर्विंश दिवसस्य आन्दोलनस्य च क्रमे विहितस्य अग्निदाहस्य कारणेन पूर्णरूपेण क्षति प्राप्तेरनन्तरं तत्र संसदः उपवेशम् उपवेष्टुम् अशक्यावस्था वर्तते सिंहप्रासादे निर्माणाधीने नवीन संसद भवने शीघ्रमेव न्यूनतमान् पूर्वाधारान् निर्माय उपवेशस्य सञ्चालनाय आवश्यकाः कार्यकक्षाः संरचनाश्च द्रुतगत्या निर्मीयमाणाः सन्तीति ज्ञापितं वर्तते पाकिस्तान देशेन जननिर्वाचनं सफलतापूर्वकं सम्पन्नमित्यालक्ष्य नेपाली जनतायै नेपाल सर्वकाराय च वर्धापनं ज्ञापितम् अस्ति पाकिस्तान देशस्य उपप्रधानमन्त्री विदेशमन्त्री च इशाक दर ह्य सन्देशं सम्प्रेष्य नेपाल सर्वकारं नेपाली जनतांश प्रति वर्धापनं विज्ञापयदिति नेपाल स्थितेन पाकिस्तान देशीय दूतावासेन ज्ञापितं वर्तते पाकिस्तान देशेन नेपालेन सह विद्यमानाय सम्बन्धाय अत्यन्त महत्वं प्रदास्यति इति उल्लेख्य अत परं देशद्वयस्य मध्ये विद्यमाना दीर्घकालिकी मित्रता अतिरिक्त सुदृढा भविष्यति इति असौ विश्वासं व्यक्तवान् इजरायल देशेन नेपाले प्रतिनिधिसभा सदस्यानां निर्वाचनं सफलतापूर्वकं सम्पन्नम् इत्यालक्ष्य नेपाली जनतायै नेपाल सर्वकाराय च वर्धापनं प्रदत्तमस्ति नेपालस्य कृते इजरायल देशीयेन राजदूतेन स्मुलिक एरीवासितेन ह्य काष्ठमण्डपे नूतन पश्चिम एशिया क्षेत्रे नवप्रभातमिति विषये पत्रकार सम्मेलनम् आयोज्य निर्वाचनं लोकतन्त्रस्य सुदृढीकरणस्य महत्वपूर्णः प्रयासो भवतीति उल्लिख्य नेपालेन सह द्विपक्षीय मैत्रीपूर्णं सहकार्यम् अतिरिक्तं सुदृढं विधातुं इजरायल सर्वकारः तत्परोऽस्ति इति उक्तं वर्तते गृहमन्त्रिणा ओमप्रकाश अर्यालेन सह नेपालस्य कृते चीन देशस्य राजदूतेन चाङ माओमिन इत्यनेन शिष्टाचार मेलवार्ता विहितास्ति। ह्यसिम प्रसादवर्तिनी गृहमन्त्रिण कार्यकक्षे सम्भूते अनयोर्मेलने नेपाल चीन सम्बन्धस्य पारस्परिक सहयोगस्य विविधेषु विषयेषु विमृष्टमासीत्। गृहमन्त्री अर्याल राजदूतस्य चाङ इत्यस्य कार्यकालस्य सफलताया कामना विधाय द्वयो देशयो सम्बन्ध नवीनतायाम् उच्चस्तायां प्राप्स्यति इति विश्वासं व्यक्तवान्। तदवसरे चीन देशस्य राजदूतः चाङ सफलतापूर्वकं निर्वाचनं सम्पादितमित्यालक्ष्य नेपाल सर्वकाराय धन्यवादं प्रदत्तवान् आसीत्। राजदूतः चाङ पारस्परिकं सम्बन्धं सुदृढं विधातुं प्रयत्नो विधास्यते इति च तदवसरे प्रतिबद्धताम् अभिव्यनक्। परराष्ट्र सचिवस्य संयोजकत्वे संघटितस्य आपत्कालिक सहयोग सम्पादक समूहस्य उपवेशेन पश्चिम एशिया क्षेत्रे विद्यमानानां नेपाली नागरिकाणां सुरक्षायै आवश्यक समन्वयाय च नैरन्तर्यं प्रदाय विमानोड्डयनानां सञ्चालनस्य सम्भावनायाः अध्ययनं कर्तुं निर्णीतम् वर्तते। मन्त्रालये ह्य उपविष्टे उपवेशे पश्चिम एशिया क्षेत्रे विद्यमानानां नेपालीनां सुरक्षायाः हितस्य संरक्षणस्य च विषयेष् नेपाल सर्वकारस्य पक्षतः अधुनावधि विहितानां प्रयासानां प्रगतेश्च समीक्षां कृत्वा नियोगैः सम्पर्के आगतानां नेपाली नागरिकाणां कृते आवश्यक सहयोगं कर्तुं च निर्णीतं वर्तते। सर्वोच्च न्यायालयस्य वरिष्ठ न्यायाधीशः सपना प्रधान मल्लः कथयति कथं विदेशोऽपि भए तर्जने त्रासे च न्याय सम्पादनं न सम्भवति। सर्वोच्च न्यायालयेन ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे वरिष्ठ न्यायाधीशः मल्लः सुशासनं स्थापयितुं न्यायिक स्वतन्त्रतायाः निष्पक्षतायाः निर्भीकतायाश्च आवश्यकता भवतीति प्रत्यपादयत्।